्युतीजनयन्त प्रशस्तम् दूरेदृशम् गृहपादिमधर्युम् समग्निमस्ते प्रतिचक्षमवासे कुतश्चित् दक्षायोदमास नित्याः प्रेद्धो अग्ने दीदिः पुरो नोजस्रजा सूर्यायविष्ठ त्वाम् सस्वन्तमुपायन्ति बाजाः प्रदे अग्नयोग्नेभ्यो वरम् निःसुवीरासस्वोसुतन्तद्युमन्ताः यत्र नरः समासते सुजाताः दानो अग्नेयादयम् सुवीरम् स्वपत्यम् साहस्य प्रशस्तम् नयम् जावातरति जातु मा वार उपजमेति युवतिः सुदक्षम् दोषावस्तोर्हविष्माति घृताजीः उपस्वेन मरमधिर्वसूयुः ईश्वा अग्ने पदहाराजीर्यभिस्तपोभिरदहोदरूथम् प्रणिश्वरम् चादगस्वामी वाम् आयस्ते अग्नयिधते अनीकम् वसिष्ठसुक्रदीति वक्पावाक उतो न येभिस्तपथैरिहस्याः वियेते अग्नेभे गिरे अनीकम् मर्तान सः पित्र्या सः पुरुत्रा उतो न येभिः सुमना इहस्याः इमे नरो वृत्रहत्येषु शूरा विश्वादे वीरभिसन्तु मायाः ये मेधियम् वलयन्त प्रशस्ताम् मासूने अग्ने निषदामनृणाम् मासेषसो वीरता परित्वा प्रजापतिषु दुर्या सुदुर्या यमस्वी नित्यमुपजाति यज्ञम् प्रजावन्तम् स्वपत्यम् क्षयम् नः स्वजन्मनाशेषसा वा प्रधानम् पाहिनो अग्ने रक्षसो अजुष्टात् पाहि धूर्तेररुषो अघायोः त्वायुजावृतनायोङ्ग्रभिष्याम् सेदग्निरग्नीङ्ग्रत्यस्त्वन्यान्यत्र बाजीतनयो वीलुपाणिः सहस्रबाधा अक्षरा समेति सेदग्निर्योपनिषदो निपाति समेद्धारमङ्गसमुदृश्यात् सुजाता सः परिचरन्ति वीराः अयम् सो अग्निराहूतः पुरुत्रायमीशानः समिदिन्धे हविष्मान् पर्यवेत्रध्वरेषु होताः त्वे अग्न आहवनानि भूरीशाना स आयुहुयामनित्याः उभा कण्वन्तो वहतु नियेधे निमो अग्ने वीतरमानि हव्याजस्रो वक्षि देवतादिमच्छ प्रतीनयीम् सुरभिनिव्यन्तु मानो अग्ने वीरते परादा दुर्वाससे मातये मानो अस्यै मानाः क्षुधे मा रक्षसा ऋता भो मानो दमे मावनायुहूर्थाः नो मे ब्रह्माण्यग्नमुच्छदाधित्वम् देवमघवद्भ्यसृषूदः रातौ स्यामोभया स आदे यूयम् पातः स्वस्तिभिः सदा नः त्वमग्ने सुगभो रङ्गसन् रत्सुदीति सूनो सहसोदिः मा त्वे सजातन ये नित्या धर्मा वीरो अस्मन्नर्यो विदासीत् मानो अग्ने दुर्भृतये स चेषु देवेद्धेष्वग्निषु प्रवोचः माते अस्मान् दुर्मतयो भ्रमाच्चिद्देवस्य सूनो सहसो न सन्त समर्थो अग्नेष्वनीकदेवानमर्त्योयुभोति हव्यम् स देवता वसुमलिम् दधा धियम् सूरिरर्थी पृच्छमानयेति महो नो अग्ने सुभिजस्य विद्वान् रयम् सूरिभ्यावः बृहन्तम् येन विदम् सहसा पन्मदेवा वीक्षिता सायुषा सुवीराः नो मे ब्रह्माण्यग्नमुच्चसाधित्वम् देवमघवद्भ्यः सुषूदः
ते यूयम् पात स्वस्तिभिस्तदानः भद्रम् नो अभिवाद यमनाः हरिः ओजस्वग्रे अद्यशोचा विभद्य जतम् धूमगृह्णन् उपस्पृत दिव्यम् दानस्तु वैः संरस्मिभिस्ततनः सूर्यस्य राजम् दस्य महिमानामेणामुपस्थो रामयजतस्य यज्ञैः ये शुक्रदेवस्तु च योधियम् धास्वदम् देवाभयानि हव्या ईलेन्यम् वो असूरम् सुदक्षामन्दर्दूतम् रोदसी सत्यवाचम् मनुष्वदग्निम् मनो नाशमिद्धान्तमध्वराजतमिन्मा हेम सपर्यवो भरमाना अभिज्ञो प्रवृञ्जते रमसाभिरग्नौ आजिह्वानाघृतपृष्टम् बृहद्वदध्वर्यवो हविडामर्जयध्वम् स्वाध्यो ओ विदुरो देवयम् तोषिश्रयोरथयुर्देवता पूर्वेषु जन्मातरादिघाने समग्रभो न समानेष्वञ्जन् ने दिव्ये महीना उरादानक्ता सुदुघे वदेनः मेरिगिरदा पुरुभूते मघोनी आयज्ञये विदाय स्वयताम् विप्रायज्ञेषु मानुषेषु कालू मन्ये वाम् जातवेदसाय दध्यै ऊर्ध्वन्नो अध्वरम् कृतम् भवेषुता देवेषु वनथो भार्याणि आभारदीभारदीभिः सजोषाजिला देवैर्मानुष्येभिरग्निः सरस्वती सारस्वतेभिरर्वाग्निस्रो देवीर्बलिभिरेदम् सन्तु तन्नस्तुरीपमथ पोषयिष्णुदेवत्वर्विराणस्य स्म यतो वीरः कर्मण्यस्व दक्षो युक्तग्रावाजायते देवतामः पनस्तदेव सजोपदेवानग्निर्हविः स पिता सूदयाति सेदुहोता सत्यता रोजजाति यथा देवानाम् दहीमानिवेद आयाश्यग्ने समिधानो अर्वाणिन्द्रेण देवैः सरथम् सुरेभिः व्यलिर्नास्तामदीति सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् अग्निम् वो देवमग्निभिः सजो राजयिष्ठम् दूतमध्वरे कृणुध्वम् यो मध्येषु निध्रुविर्हृदा पातपुर्मूर्धा घृतान्नः पापकः क्रोधः सोदयपासे भिष्यम् यदा मनः संवरणाद्यस्थात् आदस्य पादो अनुवाति शोचिरथस्वदे प्रजानम् कृष्णमस्ति उद्यस्य तेन जातश्रेणोग्नेतरञ्जराजिहाच्छाद्यामरुषोधूपयेदिसन्धूतो अग्नीयासे हि देवान् वियस्य ते पृथिव्याम् बाजो अस्रे दृशयन्नाथममृतजम् भैः सेनेव दृष्टा प्रतिदृष्टये जयमनदस्वजुह्वावेक्षि तमनि दोषादमुषीरमिष्टमग्निमत्यम् न मज्जयन्त नराः निशिता नादीचिमश्च यो नौ दीताय शोचिलाहूदस्य वृष्णाः सन्दृक्ते स्वनीकप्रतीकाम्बियदृग्मो न रोच समुपाते दिवो न ते तन्यदुरे दिलुष्पश्चित्रो न सूरः प्रतीचक्षिभानम् यथावस्वाहाग्नजेदासे महलीलाभिर्घृतमद्भिश्च हव्यैः तेभिर्नाग्नेऽमीतैर्महोभिः सतनम् भूर्भिराजासीभिर्निपाहि या वा ते सन्ति दादृषे अधृष्टा गिरो वाजाभिर्नृपतीरुष्याः ताभिन्नस्तूतो सहसो निपाहे त्वत्सूरीञ्च रिन्द्रेञ्जातवेदः निर्यद्भूते भस्वति जिस्तु जर्गात्वजा कृपादन्वा आरोचमानः आयो मात्रो ऋषेण्यो जनिष्ठदे भयज्याय शुक्रतुःपावकः एतानो अग्ने सौभागादिदीक्ष्य विक्रतुम् सुचेत संवदेव विश्वासोतृभ्यो गृह्णते स सन्तु यूयम् पात स्वस्तिभिः सदा नः शुक्राय भानवे भरध्वम् भव्यम् मतिम् चाग्रजे सुभूतम् यो दैव्यायमानुराजनोष्यम् दर्विश्वायित्मराजिगाति सकृत्स्वा अग्निस्तरो नश्चिनश्चुयतो निविष्टो अजनिष्टमातुः संयो बलायुवते सुचिदन्भूरि चिदन्नासमिदत्ति सद्यः अस्य देवस्य नमदज्जनीकेयम् मन्तासश्वेतम् च गृभ्रे नियोगिभवम् पौरुषेयी मुवोच दुरोकमग्निराजवे सुशोच अयम् कविरकविषप्रदे तामर्तेष्वग्निरमृतो निधायि समानो अत्र जुहुलः सरस्वः सदात्वे सुपनासस्याम आयोजोनिम् देवकृतम् सदा नक्रत्वाख्या अग्निरमृतारीत् समोषाधीश्च बलिनश्च गर्भम् भूमिश्च विश्वधाय संविभर्ति ीशेख्या अग्निरमृतस्य भूरेरीशे राय सुवीर्यस्य धातोः मा त्वा भजन्तरतामन्दवीरामाप्सवः परिषदाममाधूवः परिषद्यम् चरणस्य लेग्नो नित्यस्य राजःपदाय स्याम न शेषो अग्ने अन्यजातमस्य चेतानस्य वा पथो विदुक्षः न हीद्रभाजारोन्योधर्यो मनसामन्तबाहु अथाचितो गपुनरुत्सजेत्यानो भाज्यभीषाणे ध्रुव्याः त्वमग्ने मनुष्यतोरिपाहितमोनसरहामन्नभजात् सन्त्वाध्वस्मन्मदभ्ये दुपाधस्तम् रजस्पृहजाय्यः सहस्री एतानो अग्ने सौभागादिदीक्ष्य विक्रमम् सुचेत संवदेम विश्वास्तोतृभ्यो गृह्णते स सन्तु यूयम् पात स्वस्तिभिः सदा नः प्राग्ने वसे भरध्वम् गिरम् दिवो रतये पृथिव्याः एवो विश्वेणामृतानामुपस्थे वैश्वानरो वा वृधे जाग्रबद्भिः दृष्टो द्विविधायज्ञः पृथिव्याम् नेता सिन्धूनाम् मृगभस्त्यानाम् समानोषीरभिविशो विभाति वैश्वानरो वा वृधानो वरेण तद्भिया विष आयन्नसिग्नीरसमनाजहतीर्भोजानानि वैश्वानरपूर्वेशोजानः पूर्वजग्नेतरजन्नदीदे तवत्रिधातु पृथिवी बुधयोर्वैश्वानरप्रथमग्ने सचन्त त्वम् भासा रोदसीयातन्तालश्रेण सोऽषासोऽसूचानः त्वामद्देहनयो वामसानानिरस्रन्ते धुना यो घृताजीः पतिम् कृष्णीनाम् रथ्यम् रयीनाम् मयीश्वानरमृणताम् केतुमह्नाम् त्वे असुर्याम्भोङ्क्रतुम् हिते मित्रमहो दृषन्त त्वम् दस्योङ्ग्रोकासो अग्नाय पुरुज्योतिर्जन जन्नार्याय स जायमानः परमेव्यो मन्नायन्नपाथः परिपासि सद्यः त्वम् भुवजा जनयन्नभिक्रन्नपत्याय जातवेदोदशन् तामग्ने अस्मेयिषमेदाय स्वै स्वानरद्युमतीम् जातवेदः जाराधः पिण्डासि विश्ववारपृथुस्रवो दादृषे मर्त्याय त तन्नो अग्ने मघवद्भ्यः पुरुक्षणम् दयिन्निवाजाम् सुरत्यम् युवस्व ऐश्वरमहीनः शर्मा यच्छ रुद्रेभिरग्ने वसुभिः सदोभाः प्रसन्नराजो असुरस्य प्रशस्तिम् पुंसः कृष्टीनामनुमाद्यस्य इन्द्रस्येव प्रदपदस्कृतानि वन्दे दारुम् वन्दमानो विवग्मि कविम् केतुम् धासिम् भानुमद्रेर्हिण्वन्तिसम् राज्यम् रोदस्योः पुरन्दरस्य गीर्भिरावीवासेऽग्नेर्वृतानि पूर्या महानि मृद्रवायः पणीन्द्रश्रद्धा प्रदान्दस्योऽङ्ग्रग्निर्वीवाय पूर्वश्च कारापराङ्गयजून् यो अपाचीनेतमसि मदम् तीर्प्राचीश्च कारणतमस्सचीभिः तमीशानम् वस्तो अग्निङ्गृणीषेणानदम् दमयन्तम् मृतन्योन् यो देश्यो अनामयद्वधस्नैर्यो अल्यपत्नीरुदस्तकार स निरुद्ध्यानगोषो यक्को अग्निर्विशश्चक्रेवलिगृदस्तहोभिः यस्य सर्वन्नुपविश्वेजना स एवै तस्तु सुमतिम् वीक्षमाणाः वैश्वा नरो परमारोदस्योराग्निः सदातपित्रोरुपस्थम् आदेवो ददे बुद्ध्या आपसूनि वैश्वा नर उदीता सूर्यस्य आदमुद्रालवलापरस्पादाग्निर्दादे दिव आपृथिव्याः प्रभो देवम् च सहसानमग्निमस्वन्नभाजिनम् हृषे नमोभि भवानो दूतो अध्वरस्य विद्वान् प्रा देवेषु विविदे विगद्रुः आयाज्ञे मध्या अनुस्वामन्द्रो देवानाम् सख्यम् जूषाणः आदानसुषुषैर्नदयन् पृथिव्याजम्भेभिर्विश्वमुषधग्मनानि प्राचीनो यज्ञस्तुधीतम् यभर्यक्रीणीते अग्निलीलितो न होता आमातरा विश्ववारेहुमानो यजो यविष्ठजग्निषे सुसेवाः सद्यो अध्वरेण चिरम् जनन्तमानुषासो विचेदसो येषाम् विषामधायि विश्वदर्दुरोणे येऽग्निर्मन्द्रो मधुपचारिता वा असादिप्रदो वह्नैराजगण्डानग्निर्ब्रह्मा निषदने विधर्ता यौश्चयम् पृथिवी वा बृधाते आयम् गोधादिजाति विश्ववारम् ये ते द्युम्नेभिर्विश्वमातिरन्धमन्त्रम् ये वा सम्नर्यादक्षन् प्रजे विशस्तिरन्धश्रोणमाना आये मे अस्य दीधयन्धृतस्य नो त्वामग्नजीमहे वसिष्ठायीशानम् सूनो सहसोपसूनाम् युषम् स्तोतृभ्यो मघवद्भ्यूयम् पाद स्वस्तिभिः सदा नः इन्द्रेराजातमनजो नमोऽभिर्यस्य प्रतीकमाहूतम् कृतेन नरो हव्येभिरीलते सवासाग्निरग्रमुषसा वशोचि अयमुष्यसुमाहाम् कवे दिवोता मन्त्रो मनुषो यः को अग्निः विभागस्य सृजानः पृथिव्याम् कृष्णपाभिरोषधीभिर्ववक्षे अजानो अग्ने विवासस्तु भृत्यम् कामः स्वधा मृणवः सस्यमानः कदा भावे भवता यस्तु तत्र राजो मन्दारो दुष्टरस्य साधोः प्रायमग्निर्भारतस्य दृण्डे वियत्सूर्यो न रोचते बृहद्भाः अभियम् पूरम् मृदानासौ द्यूतानो दैव्यो अदिशिशुश्रोच असन्नेत्ते आहवनानि भूरि भुवो विश्वेभिः सुमनानीकैः संयस्तोतृभ्य आपये भवादिद्युमदवीवचादनम् रक्षोः नो त्वामग्नये महे वसिष्ठायीशानम् सूनो सहसोपसूनाम् इषम् स्तोतृभ्यो मघवद्भ्यारज्जूयम् पातः स्वस्तिभिः सुधानः अबोधिजानपुषदामुपस्ताद्धोता मन्द्रः कविता मत्पावकः तथादिकेतुमुभयस्य चन्दोराव्या देवेषु द्रवीणम् सुहृत्सु स शुक्रतुर्यो विदुरः पलीनाम् पूनानो अर्कम् पूर्वभोजसम् नः होदा मन्त्रो विश्रान्तमो नास्थिरस्तमोदृशे राम्याणाम् अमोरः कविरजीतिर्विवस्वांसु संसम् मित्रो अदिति शिवो नाः चित्रभानुषदाम् भात्यग्रेपाम् गर्भप्रस्वाविवेश ईरेण्यो भो मनुषो युगेषु समनगासु सज्जातवेदाः सुसंवृता भारुणायो विभाजे प्रतिगावस्समिधानम् बूधन्त अग्नेयादिदूत्याषण्यो देवाङ्गच्छा ब्रह्मकृता गणेन सरस्वती मनुरो अश्विनापो यक्षी देवाङ्गेयाय विश्वान् स्वामग्ने समिधानो वचक्षोजरोधम् घन्यक्षीराये पुरन्धिम् ूनम् पाद स्वस्तिभिः सदानः उषो न जानः पृथुपाजो अश्रेद्ध विद्युदीर्जच्छोऽसु जानः पृषारनिश्रुतिराभातिभासाधियो हिन्वानपूसतीरजीवः स्वा अन्नवस्तो ऋषदामरोचिगन्तम् बाणामुसुजो नमन्व अग्निर्जन्मानि देवापि विद्वान्द्रवद्धूतो देवया भावनिष्ठः अच्छागिरो मदयो देवयन्तीरग्निर्यन्तिद्रवीरम् भिक्षमाणाः सुसन्दृतम् सुप्रतीकाम् स्वन्तम् हव्यवः मरतिम् मानुषाणाम् इन्द्रम् नो अग्ने वसुभिः सजोषा रुद्रम् रुद्रेभिरावाः बृहन्तम् आदित्येभिरजेतुम् विश्वरञ्जाम् बृहस्पतिमृग्भिर्विश्ववारम् मन्द्रम् होदारभुषिजोरिविष्टमग्निम् विषयीलते अध्वरेषु स यैषवाकभद्रलीनामतन्द्रो दूतो निरसाय देवान् अस्य ध्वरस्य प्रकेतो न हृदे त्वदमृता मादयन्ते आविश्वेभिः सरसम् याहि देवैर्न्यग्ने होता प्रथमः स देह त्वामीरते अजुरम् दूत्याय हविष्मम् दस्सदमिन्मानुषासः यस्य देवैरासदो बर्हिरग्ने अन्यस्मै सुदिना भवन्ति त्रिस्थीदत्तो प्रतीकदुर्वसो नित्वे अन्तर्दासु क्षेमत्याय मनुष्यदग्नयक्षिदेवान् भवानो धूतो अभिदस्ति पावा अग्निरीदे बृहतः ध्वरस्याग्निर्विश्वस्य हविषः कृतस्य कृतम् ह्यस्य वसवो जिषन्ताथा देवादधिदेहव्यवाहम् आग्नेवरविरज्याय देवायिन्द्रज्येष्ठास इहमादयन्ताम् इमम् यज्ञम् दिवि देवेषु धेहि यूयम् पाद स्वस्तिभिः सदानः अगन्नमहानमादायविष्ठाञ्जो दीताय समिद्धस्वे दूरोणे चित्रभानम् रोदसी अन्तरुर्वी स्वाहृतम् विश्वतः प्रत्यन्तम् स समन्ना विश्वाजुरितानि साह्वानग्निष्टा वेदमहाजातवेदाः सनो रक्षिणद्दुर्जातभज्जातस्मान्तृणतभुतनो मघोनाः त्वम् वरो न उत मित्रो अग्ने त्वाम् वर्धन्ति मतिभिर्वसिष्ठाः वेवसु सुषणनानि सन्तु यूयम् पादः स्वस्तिभिस्तदानः विश्वसुते धियम् दे सुरग्ने मन्मासीतिम् भारध्वम् भयेणानो वै स्वानरा जयता ये मतीनाम् त्वमग्ने सोऽभिरासोऽसु च न आरोदसि अवृणायायमानः परम् देवाम् अभिसत्ते रमुञ्चो वै स्वानरजातवेदो महित्वा जातो जलग्ने भुवनाव्यक्षः पशून्न गोपायिर्यः परिज्मा वै स्वानरब्रह्मणे विन्दगाधुम् यूयम् पाद स्वस्तिभिः सदा नः समिधा जातवेदते देवाय देवहूतिभिः हविर्भिः शुक्रसोजिरे नमस्विनो वयम् दासे माग्नये अयम् ते अग्ने समिधाविदेम अयम् दासेम सुष्टदीयजत्र अयम् कृतेनाध्वरस्रहो दर्वयम् देव हविषा भद्रसोचे आ नो देवेभिर्व देवहूतिमग्ने जाहि वरकृतिम् जुषाणः तुभ्यम् देवा यदादस्याम यूयम् पाद स्वस्तिभिः सदा नः उपसस्याय वीरुड आस्ये जुहुदा हरिः यो नो ने दिष्टमाप्यम् यः पञ्चचर्षणि रवीणि रसा दतमे जमे कविर्गृहपतिर्युवा स नो वेदो अमात्यमग्ने रक्षतु विश्वताः उदास्मान् पात्वम् गासः कमन्नस्तोममग्नये दिवस्येनाय जीजनम् वस्वः कुविद्वनादीनः स्वार्गायस्य श्रियो धृते रजिर्वीरवतो यथा अग्ने यज्ञस्य शोचतः सेवाम् वेदुवरकृतिमग्निर्जोषतनो गिराः यजिष्ठोऽहव्यवहारः निर्वाणक्षविस्पदेद्युमन्तम् देव धीमहि सुवीरमग्न आहुज क्षतपुस्रश्च दीनिः स्वयम् सुवीरस्त्वमस्मयोः उपत्वा सादजेन नो विप्रासोऽयन्ति धीतिभिः उपाक्षरासहस्रुणी अग्निरक्षांसिषेधरि शुक्रसो चिरमत्यः शुचिः पापकलीड्याः स नो राधांस्याभरेशानः सहसोजः भगश्च दाधुवार्यम् त्वमग्ने वीरमद्यसो देवश्च स पिता भगाः दिदिश्च दाधिवार्यम् अग्ने रक्षाणो अम्घसः प्रतिष्पते परीषदः तपिष्ठैरजरोदः अथा मलीनायस्य नादृष्टो नृपीतये ऊर्ध्ववासदभूजिः तन्नः पाह्यम् रासो दोषावस्तरघायतः दिवानक्रमदाभ्या येनावो अग्निर्नमासोऽर्जो न पादमाहूबे प्रियम् चेदिष्ठमरयम् स्वध्वरम् विश्वस्य दूतमृतम् सयोजते अरुषा विश्वभोजसा सदुद्रभस्वाहुतः स्वद्ब्रह्मा यज्ञस्तु स भीमसूनाम् देवम् राधो जनानाम् उदस्य सोऽजिरस्थालायुह्वालस्य वीरुषाः उद्धूमासो अरुषासो दिविस्मृतस्तमग्निविन्धते नराः ूतम् गृह्महे यदस्तमम् देवाङ्गीतयेव विश्वासूनो सहसोमत्तभोजधारास्वदत्यद्वेमहे त्वमग्ने गृहपातिस्त्वम् होतानो अध्वरे तमुम्बोता विश्वमार प्रचेताय क्षिरेशी चमार्यम् कृतिरत्नम् यजमानाय सुक्रतो त्वम् यरत्नधासि आनादितेशीशी विश्वपृथ्वीरम् सुतम् सोऽयश्च दक्षते त्वे अग्ने स्वाहुतप्रियासः सन्तु सूरयः यन्त्रारो ये मघवा नो जनानामूर्वान्दयन्त गोणाम् ये रामिला हृदयस्तादुरोणाम् अभिप्रादा निषीदति ताश्रायस्वनः सद्रुवो निजो यच्छा नः शर्म दीर्घश्रुत् समन्त्रया च जिह्वजावह्नीरासा विदुष्टरः अग्नेरयम् मघवद्भ्यो न आवाहव्यदातिम् च सूदय ये राधासिरत्यस्या मघाकामेन श्रवसो महाङ्गदपिबृहिपत्रभिष्टम् सदम्भोर्भिर्याविष्ट्या देवो मोद्रविनोदा पूर्णाम् विवक्त्यासिजम् उद्वासिन्दध्वमुपावापृणध्वमादिद्वो देवबोहते तम् होतारमध्वरस्य प्रचेतसम्बन्धिम् देवा गृण्वत तथातिरत्रम् विधते सुवीर्यमद्व्यर्जनाय दासुषे अग्ने भवसुषमिधासमिद्धमुदबर्हिरुर्भिरा विस्तृणीताम् उतद्वारा उदतीर्विश्रयन्तामुत देवाङ्कुशदावहेह अग्ने भीहिषविषायक्षीदेवान् स्वध्वराकृणीयातवेदः स्वध्वराकारति जातवेदायक्षद्देवामृतान् विप्रयच्च स्वावार्याणि प्रेतसरत्याभवन्ताशिषो नो अद्य त्वामुचेदधिरेहव्यवाहम् देवासो अग्नभूर्जाहम् दस्याम ममो नो रत्नाविदधैयानः ते हजरत्पितरश्चिन्द्रेन्द्रविश्वा वामाचरितारो असन्वन् त्वे गावः सुदुःखास्त्वे ह्यस्वास्त्वम् वसुदेव यते मनिष्ठः राजेभीक्षे सेवामद्युभिरभिदुष्कविसन् विशालिरोभिरस्वैरिस्वायुधीराजे अस्मान् इमाहुत्वापस्पृधानासो अत्र मन्द्रायिरोदे भजन्तीरुपस्थो अर्वाचीते मत्स्या राजजे दस्यामदे सुमताविन्द्रशर्मन् धेनम् नत्वा सूयवासे सुदुःखान्वब्रह्माणि ददृशेव दृष्टः स्वामिन्मे गोपतिम् विश्व आहारेन्द्रस्तु मतिम् गन्वच्छ अन्नाम् त्रिजित्वप्रधाना सुदास इन्द्रो गाधान्यकृणोत्सु पारा शर्धन्तम् दिव्यमुदधस्य नव्यश्वापम् सिन्धू नाम कृणोदसस्तीः पुरोणायित्तुर्वसो यक्षुरासीद्राजे मत्स्यासो निशीता अपीव सृष्टिम् चक्रभृगो दृश्यमसखायमतरद्विषोजो आवर्थासो फलानसो फलन्तालीनासो विषाणिनः शिवासाः आयो न यत्स आज्ञस्य गव्यादृत्सभ्यो अजगन्युधानेन स्वराध्योदितिम् श्रेवयम् गर्भे परुष्णीम् मह्नापृथिवीम् पत्यमानः परुष्कविलासयच्चायमानः ईजुरर्थान्यर्थम् वरुष्णीमासुश्चलेदाभिवित्त्वम् जगाम सुदासीन्दः सुदुगानमित्रानरन्धयन्मानुषे वद्धीवातः ईजुर्गाभोलयव साधगोपायचा कृतमभिमित्रम् चिदासाः ప్రశ్నీ ప్రేరిత సృష్టిందోంద్రవస్రామీ కర్ణజోర్జాన్యస్తర్గమోంద్రాయేణ్రాహు పూర్వం విదసే వృద్ధవాచంశ్రహస్రా భోజు విశ్వేంద్రీర్యాని ఇంద్రే నైతృత్స భోగే వీషానా దుర్విశ్వాసే అర్థం వీరస్ సుతపామీంద్రం పరాసర్థం తమ్ నునుదే అభిక్షా ఇంద్రామన్యుం మన్యుమ్యోమిమాయ భేదే పథోపత్ర నింపత్యమానః ఆద్రేణ సిద్ధద్వేకం చకార సింహ్యం చిత్వే నాజఘాన అవస్రక్తీర్వేశ్వాభోజనాసుదాసే శ్వంతో సత్రాభోరారదుష్టే భేదస్య జిచ్ఛర్ధతో వింధరంధ్యం మంత్రాంగేన స్తుభతో యః కరోతి దిగ్మం తస్మిన్నిజ హి వజ్రామింద్ర ఆవదింద్రం యమునా ద్విత్సవస్త్రప్రాత్ర భేదం సర్వదా తాముదాయతే అజహస్తిద్రభోక్షేర్షాణీర్రాజక్షే పూర్వాషోనూత్నాన్వాణ్యమానం జగన్మానృహతంభారంభే గృహాతమాదు స్వాజాసతనరాధుర్వదిష్ట భోజస్ ీ విభక్ంద్రన్న శ్రవతో గృణంతి నియుధ్యమీకే ఇమం నోమరుతాన్న పితరం సుదాసా అవిష్టనాశేతూనాసం క్షత్రమలూమృంగాన భీమేక పృష్టి ప్రవిశ్వాతో అదాశోగజస్ ప్రజంతసి సుష్ీతరాజవేదా ంగత్సమాశుశ్రోషమానస్తన్వాజుష్టంజస్మాహరంధర ఆర్జునేయాజశిక్షన్ ధృష్ణో దృషదా వీతహం ప్రాపో విశ్వాభిరుదిభిస్తుదాసం పౌరగుత్సిం ప్రసదస్యుమాక్షేత్రు పూర్వం ృభిర్మణో దేవీ తౌ భూరీహర్యస్వహంసి త్వన్నిదశ్యంసుమూరింధునిజాస్వాపయోదీరాజే సుమంతు तवच्चोद्नानि भद्रहस्तानि न भयत्पुरो न मतिम् च सद्यः निवेशाने सततमाविवेशीरहन्तवृत्रम् नमोऽसि बुदाहन् राता इन्द्रभोजनानि रातहम् जागराजुरे ृष्णेहरीव्रागिमद्यन्तो ब्रह्माणि पुरुषागवाजम् माते अस्याम् सागता पन्मनिष्ठा भगाज भूमहरिमपरावै राजस्वलोकेभिर्वरोचैस्तव प्रियासः सूर्यश्याम प्रियासयित्ते मघवन्नभिष्टो नरो मदे मदरणे सदा करिष्यन् सद्यश्चिन्नुते मघवन्नभिष्टौ नरः संसंयुक्तसाभुक्तास्मान्ेष्वयुज्यायतस्मै एते स्तोमानृतमनुभ्यमस्मद्यम् चो ददातो मघानि ेषामिन्द्रे शिवो भूः सखा चूरो विराजानृणाम् नो इन्द्रजोरस्तवमानभूती ब्रह्मजूतस्तन्वावृधस्व उपानो वाजान्निमेष्युपस्तेऽन्यूयम् वादस्वस्तिभिस्तदाः उभद्रम् नो अपि वादयमनाः
हरिः
उग्रोदीर्जाय सुधापाञ्चग्रिरपोरल्लोयत्करिष्यन् जग्भिर्युवानृषदा नमोभिस्त्रादानयेन्द्रयेण सोमनश्चित् हन्तारुद्रेन्द्रसुबाणाप्रावेन्नुभिरोजरिदागमूती कर्ता सुदासे अभवाभूलोकम् दातावसुमुहुराधाजुषे भूत् युद्ध्वानर्वाघजगत्समद्वासुरस्रत्राघाजनुषेमराः व्यास इन्द्रप्रदाना स्वजाविश्वम् शत्रूयन्तम् जघान ेजीलिङ्गरोदीमहित्तावप्राथमीषीभिस्तुविष्मः निवज्रमिन्द्रो हरिवान्विक्षन् सबन्धसामदेषु वावोच मृषाजजानमृषाणम् नरायतमोचिन्नारीणर्यम् ससूव प्रयस्येनानीरधनभ्यस्तेन सत्पारवेण न स धृष्णः ेषदेजनो नरे नन्मनोजो अस्य घोरमाविवासात् यज्ञेन्द्रेन्द्रे दुवाम् शिक्षयस्य राजर्तमारुतेजापूर्वो अपराजशिक्षन्नयज्ञान्कनीयसो देष्णम् अमृतगिरिपर्यासीतदूरमाचित्रचित्यम् भरारयिन्नाः यस्तायेन्द्रप्रियोजनो ददासुरसन्निरेके अग्निपस्सखादे वयम् ते अस्याम् सुमतौ च निष्ठास्यामवरूधे अग्नदौर्वीतौ येन स्तोमो अधिक्रतृषादपुतस्तामुर्माघवन्नक्रपिष्ट राजस्कामो निरिदारनन्त आगन्त्वमङ्गसक्रमस्व आशकोलः इन्द्रत्वया ताजायुषे धात्मना जये मघवानो जिगन्ति अस्येषिते जरित्रे अस्तु सर्वम् पादस्वस्ति सदा।